अस्य मद्भक्तिवतमादयध्वन्तृप्तायात् पथिभिर्देवयानैः सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता धरात्तात् सविता नः सुवतु सर्वता किं सविता नो रासताम् शतंयथेमं शरधूनयातिन्द्रो विश्वस्य दुरितस्य पारम्।
अथ कृष्णयजुर्वेदे विष्णुसूक्तम्। अथर्वेदे विष्णुसूक्तम्। अवन्तो नो यतो विष्णुरुविचक्रमे